इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। इदानीं वार्ताः। राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य प्रभृति त्रयाणां देशानां अल्जीरिया मौरिटानिया मलावी इत्येतेषां यात्रायां व्याति। निज यात्रा प्रवासे राष्ट्रपति द्विपक्षीयोपवेशनानि विधास्यति। राष्ट्रपति अपि च भारतीय प्रवासिभिः साकं संवादं समाचरिष्यति। इयं भारतस्य राष्ट्रपतेः त्रयाणां अफ्रीकीय देशानां प्रथमा यात्रा भवेदिति। यात्रायाः प्रथमे चरणे राष्ट्रपतिः अल्जीरियां प्रति यास्यति। तदनु राष्ट्रपतिः द्रौपदी मुर्मू पीपुल्स डेमोक्रेटिक रिपब्लिक ऑफ अल्जीरिया इत्येतस्य दलस्य अध्यक्षेण अब्देल मजीद तेब्नो इत्यमुना साकं द्विपक्षीयोपवेशनं करिष्यति। तदनन्तरं राष्ट्रपतिः भारत अल्जीरिया आर्थिक मञ्चं सिदी अब्देल्ला विज्ञान प्रौद्योगिकी विश्वविद्यालयं च सम्बोधयिष्यति। यात्रायाः अन्तिमे चरणे राष्ट्रपतिः मुर्मू अक्टूबर मासस्य 17 दिनांकतः 19 दिनांकपर्यन्तं मलावी देशं प्रति यास्यति। लोकसभाध्यक्षः ओम बिरलाः अद्यारभ्य अस्य मासस्य 17 दिनांकं यावत् जिनेवा नगरे आयोक्ष्यमाणायां अन्तासंसदीय संघस्य आईपीयू इत्याख्यस्य 49-तमायां सभायां संसदीय प्रतिनिधिमण्डलस्य नेतृत्वं समाचरिष्यति। श्रीबिरलाः इतोऽपि अधिकं शान्तिपूर्ण सत्यभविष्याय विज्ञान प्रौद्योगिकी नवाचाराणाम् उपयोगः इत्यस्मिन् विषये सभां सम्बोधयिष्यति। तदनु असौ अस्य मासस्य 14 दिनांके जिनेवानगरे भारतीय प्रवासिभिः समं वार्तां करिष्यति। अपरत्र असौ सभामध्ये अन्येषां संसदां स्वीयैः समकक्षैः सहापि संवादं करिष्यति। अवधेयं वर्तते यत् भारतीय प्रतिनिधिमण्डले एतस्मिन् राज्यसभायाः उपसभापतिः हरिवंशसिंहः उभयोः सदनयोः महासचिवः अन्ये च संसत्सदस्याः सम्मिलिताः सन्ति। विविध प्रारूप सम्पर्क सौविध्येभ्यः प्रारब्धा प्रधानमन्त्री गतिशक्ति राष्ट्रिय योजना ह्यः त्रीणि वर्षाणि सम्पूरितानि। एकविंशत्यधिक द्विसहस्रतमे वर्षे विभिन्नेभ्यः आर्थिक क्षेत्रेभ्यः सौविध्य प्रदानाय एषा योजना निर्मिता आसीत्। प्रशासनेन हिन्दुस्तान एरोनॉटिक्स लिमिटेड इत्येषः 14वें महारत्ने केन्द्रीय सार्वजनिक क्षेत्रोद्यमे उन्नतं कर्तुं स्वीकृतिः प्रदत्ता। इयं सूचना सार्वजनिकोद्यम विभागेन सार्वजनिक सन्देश पटले एकस्मिन् प्रकाशिता। तत्रोक्तं यत् वित्तमन्त्रिणा निर्मला सीतारामन इत्यनया अस्यै स्वीकृतिः प्रदत्ता। संयुक्त राष्ट्र बाल कोषेन अभिसूचितं यत् भारतीयापूर्तिकर्तारः वैश्विक स्तरे बालेभ्यः स्वास्थ्य खाद्यान साहाय्यं प्रदानकर्तृषु तृतीयेषु बृहत्तमेषु संघटनेषु अन्यतमाः सन्ति। भारतीय व्यवसायैः यूनिसेफ इत्यस्य वैश्विक कार्येभ्यः भूयोऽपि 6 बिलियन डॉलर मितस्य मूल्यस्य वस्तूनां सेवानां च आपूर्तिः कृतास्ति। केन्द्रप्रशासनेन आन्ध्रप्रदेश राजस्थान राज्ययोः ग्रामीणस्थानीय निकायाः प्रवर्तमान वित्तीय वर्षाय 15वें वित्तायोग अनुदानस्य प्रथमद्येय मूल्यं प्रसारितम्। पंचायती राज्य मन्त्रालयेनोक्तं यत् आन्ध्रप्रदेशम् आहत्य 396 कोट्यात्मक आधारभूत अनुदानम् अथ च 593 कोट्यरूप्यकाणां बद्धानुमानं निश्चितं कृतमस्ति। अपि च क्रीडायां पुरूषाणां क्रिकेट प्रतिस्पर्धायां भारतेन ह्यः रात्रौ हैदराबादनगरे क्रीडिते तृतीये अन्तिमे च 20-प्रतिविंशतिः अन्ताराष्ट्रिय क्रिकेट द्वन्द्वे बांग्लादेशः 33 धावनांकैः पराजितम्। एतेन सहैव त्रिषणां श्रृंखलानां प्रतिस्पर्धा भारतेन विजितास्ति। इति वार्ताः।